वदतु भगिनि, सूर्यकुमारी भगिनि।
महोदय, केन गौत, क्षम्यतां महोदय, अन्ये वदतु महोदय।
चिन्ता मास्तु भगिनि, यत् अस्तु रघुपति महोदय, अस्तु भवान् वदतु।
ओम्, येन धौता गिरःपुंसा विमले शब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिने नमः। श्रीगुरुभ्यो नमः। हरिः
ओम्। नमस्कारः, धन्यवादः महोदय। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। गतवर्गे एतावत् वयं किं पठितवन्तः इत्युक्ते सङ्ख्या इति विषये वयं एतावत् पठितवन्तः। इदानीम्
अहं लक्ष्मी अस्मि।
लक्ष्मी भगिनी नमस्कारः।
नमस्कारः महोदय।
नमस्कारः भगिनी। इदानीम् अग्रे सरामः। गतवर्गे वयं किं कृतवन्तः, तत्र भगवद्गीतायाः श्लोकान् परिशीलितवन्तः। इदानीम् अग्रिमविषयः आयाति, सः विषयः अस्ति पूर्णप्रत्ययान्ताः इति। अतः एतत् सर्वं कुत्र अस्ति इत्युक्ते पेज् 69। गीताञ्जलि भगिनी नमस्कारः भगिनी।
नमस्ते महोदय, क्षम्यता महोदय।
नमस्कारः भगिनी। हा, अतः तत्र इदानीं तत्र नूतनविषयः पूर्णप्रत्ययान्ताः इति। वयं सङ्ख्याविषये जानीमः, तत्र एकः वा द्वे वा अथवा त्रीणि इति तादृश वक्तुं शक्नुमः, किन्तु इदानीं चिन्तयामः तत्र पञ्चबालकाः सन्ति, तत्र क्रमशः पञ्चबालकाः सन्ति, तत्र क्रमशः ते तिष्ठन्ति, तत्र पङ्क्तौ तिष्ठन्ति इति चिन्तयामः। यत्र क्रमः भवति, क्रमः नाम तत्र अहम् अनेकानि कार्याणि कर्तुम् इच्छामि, अनेकानि कार्याणि सन्ति, तत्र क्रमशः करोमि इत्युक्ते सर्वाणि कार्याणि एकस्मिन् समये एव करोमि इति न, किन्तु क्रमशः करोमि इत्युक्ते तत्र प्रथमतया एकं कार्यं करोमि, तदनन्तरं विद्यालयं गच्छामि, तदनन्तरं तत्र किं मित्रेण सह मिलामि इति तादृशं भवति चेत् तत्र किं वदामः, प्रथमं कार्यं, द्वितीयं कार्यं, तृतीयं कार्यम् इति तत्र यत्र क्रमः अस्ति तत्र सङ्ख्याः न भवन्ति, अपि तु तत्र पूर्णप्रत्ययान्ताः इति। अतः तत्र एकः द्वे त्रीणि इति न, इदानीं किं भवति तत्र प्रथमः द्वितीयः तृतीयः इति भवति। अतः वयं तत्र पुटसङ्ख्या 71 पश्यामः, तत्र यथा सङ्ख्या अपि तत्र सङ्ख्या यत्र भवति तत्रापि विशेषणविशेषभावः अस्ति, तत्र एकः बालकः एका बालिका इति अस्ति, तत्रापि विशेषणविशेषभावः अस्ति, अत्रापि विशेषणविशेषभावः अस्ति, अतः तत्र लिङ्गभेदः भवति। अतः पूर्णप्रत्ययान्ताः ये दत्ताः सन्ति तत्र पुटसङ्ख्या 71 इति इदानीं वदामि, किन्तु अग्रे 71 कथं वक्तव्यमिति अग्रे पश्यामः। अस्तु तर्हि, तत्र लक्ष्मी भगिनी तत्र एकवारं तत्र किञ्चित् पठति वा भगिनी, तत्र प्रथमः द्वितीयः इति किञ्चित् कोष्टके दत्तमस्ति।
अस्तु महोदय। पूर्णप्रत्ययान्ताः सङ्ख्या पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे। एकं पुल्लिङ्गे प्रथमः, स्त्रीलिङ्गे प्रथमा, नपुंसकलिङ्गे प्रथमम्।
इदानीं द्वितीयः किं भवति?
सङ्ख्या द्वे, पुल्लिङ्गे द्वितीयः, स्त्रीलिङ्गे द्वितीया, नपुंसकलिङ्गे द्वितीयम्।
हा, इदानीं तत्र किञ्चित् तस्य प्रयोगः अपि भवतु, तत्र प्रथमः इति उपयुज्य एकं वाक्यं करोति वा भगिनी? प्रथमः तत्र अनेकाः बालकाः सन्ति इति चिन्तयतु. प्रथमः बालकः अस्ति, सः कः? प्रथमः बालकः कः?
प्रथमः बालकः रामः.
रामः अथवा कोऽपि अस्ति, तस्य अनेकाः पुत्राः सन्ति, अतः तत्र दशरथस्य इति चिन्तयतु. दशरथस्य किं
वाक्यं? प्रथमः पुत्रः रामः.
हा इति समीचीनं भगिनि. हा इदानीं द्वितीयः इति किं भवति?
दशरथस्य द्वितीयः पुत्रः भरतः.
भरतः इति. तृतीयः तु लक्ष्मणः.
लक्ष्मणः तृतीयः. लक्ष्मणः
चतुर्थः.
शत्रुघ्नः.
अस्तु समीचीनं भगिनि. अस्तु इदानीं तत्र सूर्यकुमारी भगिनी इदानीं तदेव इदानीं स्त्रीलिङ्गे करोतु भगिनि.
प्रथमा द्वितीया सीता भवत्.
किं भगिनि?
जनकस्य प्रथमा पुत्रिका
पुत्री पुत्री
प्रथमा पुत्री सीता.
द्वितीया
पुत्री
यदि न स्मरति अन्यत् वाक्यं वदतु.
द्वितीया पत्नी दशरथस्य.
मम द्वितीयपुत्र्याः नाम
द्वितीया पुत्री. द्वितीया पुत्री
द्वितीयः पुत्री
द्वितीयः पुत्री न द्वितीया पुत्री का अस्ति?
द्वितीया पुत्री शिल्पा.
शिल्पा अस्ति, समीचीनं भगिनि. हा इदानीं तृतीया इति तत्र स्त्रीलिङ्गे किमपि पदं स्वीकरोतु. स्त्रीलिङ्गपदं
जनकस्य तृतीया पुत्री सौमित्री.
जनकस्य सौमित्री वा? ऊर्मिला लक्ष्मणस्य पत्नी. इदानीं
पाण्डवः
इदानीं स्त्रीलिङ्गे स्त्रीलिङ्गे चतुर्थी
चतुर्थी दिनाङ्के.
न न तत्र दिनाङ्के इति न भवति खलु भगिनि, विशेष अतः दिनाङ्के इति स्थाने किं कर्तुं शक्नोति? तत्र दिनाङ्के इति पदस्य तत्र न न चतुर्थी इदानीं प्रथमाविभक्ति एव. चतुर्थी इति स्त्रीलिङ्गपदं भगिनि खलु.
चतुर्थी
चतुर्थी इति न दीवत् स्त्रीलिङ्गपदम्. इदानीं दिनाङ्कः इति तत्तु पुल्लिङ्गरूपम् अस्ति. इदानीं तत्र समानार्थकपदं स्त्रीलिङ्गे अपि अस्ति. किं तत् किं पदं? समानार्थकदिनाङ्क इति अर्थे स्त्रीलिङ्गपदमपि अस्ति. न न दिनम् इति नपुंसकलिङ्गे, दिनाङ्कः इति पुल्लिङ्गे इति मन्ये. किन्तु तिथिः अस्ति खलु? तिथिः 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 न जानाति.
एकादशी द्वादशी त्रयोदशी एतादशी
ते सर्वे तिथयः खलु. तिथयः जानाति वा भगिनि तिथिः इति? न जानाति. अस्तु तिथिः इति मतिशब्दवत् स्त्रीलिङ्गपदम् अस्ति. तत्र एकादशी वा द्वादशी वा चतुर्दशी अथवा चतुर्थी इति तिथिः अस्ति. अतः अस्तु वाक्यम्. अस्तु 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 चिन्ता मास्तु भगिनि, अन्य कोऽपि वदति. अस्तु इदानीं तत्र गीताञ्जलि भगिनी तत्र किम् इदानीं नपुंसकलिङ्गे वदति वा भगिनि?
आं महोदय, प्रयत्नं करोमि. सर्वाणि फलानि वद सन्ति. प्रथमं फलं आम्रफलं,
समीचीनं.
द्वितीयं फलं नारिकेलं फलं, समीचीनं. नारिकेलफलं. द्वितीयं फलं अञ्जीरफलम्. अञ्जीर. चतुर्थं फलं बीजपूर, अधुना तु दृष्ट्वा वदामि महोदय,
बीजपूरफलं.
बीजपूरफलम् इत्युक्ते ग्वावा. पञ्चमं पपाय किं महोदय?
न जानामि भगिनि, किन्तु यत् जानीमः तद् उपयुज्य चतुर्थं किं महोदय?
पपायफलम्
इति एव वदामि. अस्तु
अस्तु,
स किमपि अभवत् इति मन्ये रघुपतिमहोदयस्य तत्र कनेक्षन्. सः पुनागतवान्. अस्तु, नमस्कारः महोदय. भग्नः जातः, चिन्ता मास्तु.
अहमपि न जानामि पपाय इति किम् इति.
पञ्चमं फलं निम्बुफलं.
निम्बुफलं तावत् समीचीनं भगिनि.
कदलीफलं.
किं भगिनि?
कदलीफलं.
कदलीफलम्, अस्तु, समीचीनं भगिनि. अतः तत्र एकः इति अथवा तत्र त्रीणि फलानि इति अस्ति, अपि तत्र तृतीयं फलं, भेदः कः? लक्ष्मी भगिनी, त्रीणि फलानि अपि तृतीयं फलं, तयोः मध्ये कः भेदः? लक्ष्मी भगिनी,
न अवगतं प्रश्न.
त्रीणि फलानि सन्ति.
त्रीणि फलानि सन्ति,
तत्र त्रीणि इति इति अस्ति. इदानीं तृतीयं फलम् इति अस्ति चेत् तत्र कः भेदः? तृतीयं फलम् इति, तृतीयं फलम् अनन्तरं तत्र सन्ति इति वदामः वा अथवा अस्ति इति वदामः? तृतीयं फलं त्रीणि फलानि सन्ति,
तृतीयं फलम् अस्ति.
अस्ति, अस्तु, किमर्थं?
प्रथमाविभक्ति.
किन्तु किमर्थम् एकवचनं तृतीयम् इति अस्ति चेत् किमर्थं
फलं नपुंसक?
तृतीयम् इति एकमेव, एकं फलं
विशेषणविशेषभावः,
विशेषभावः अस्ति. यद्यपि तत्र त्रीणि फलानि सन्ति, किन्तु यदि वदामः तत्र प्रथमं फलं, द्वितीयं फलं, तृतीयं फलम्, एकमेव फलं प्रथमं भवति खलु? अतः तत्र तृतीयं फलम् इति एकवचने अस्ति, तृतीयं फलम् अस्ति. इदानीं तत्र अपि एतावत् तत्र प्रथमाविभक्तिरूपाणि एव दृष्टवन्तः, अग्रे गत्वा द्वितीयविभक्ति अपि तत् सर्वं कुर्मः. किन्तु एकवारं तत्र रूपं कीदृशम् इति तदपि तत्र किञ्चित् अवलोकनं कुर्मः. तत्र पूर्णप्रत्ययान्ताः, अतः तत्र पुटे ये यानि पदानि दत्तानि सन्ति तानि पश्यन्तु, तत्र रूपं कीदृशं भवति. तत्र किं पञ्चमः इति स्वीकुर्मः, तत्र प्रथमः, द्वितीयः, तृतीयः, चतुर्थः इति अस्ति, तदनन्तरं पञ्चमः अस्ति. पञ्चमः तः दशमः पर्यन्तं किं भवति? मह इति अस्ति. षष्ठः इति तत् भिन्नं, किन्तु पञ्चमः अस्ति, सप्तमः, अष्टमः, नवमः, दशमः इति अस्ति. तदनन्तरं किं भवति? दशमः इति अस्ति, तदनन्तरं रूपं कीदृशं भवति? रघुपतिमहोदय,
अनन्तरं एकादश, दश,
हा तत्र मकारः नास्ति, तत्र एकादश, द्वादश, त्रयोदश इति दश 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 इति, तद् यावत् यावत्पर्यन्तं तादृशं रूपं भवति?
तत्र विंशति विंशति एकवारं तत्र विंशतिपर्यन्तं
अतः तत्र एकादशतः नवदशपर्यन्तं तत्र दशः एकादशः द्वादशः इति रूपं भवति. तदनन्तरं किं भवति, तत्र विंशतिः इति अस्ति, तदनन्तरं तत्र विंशतिः इति एव न भवति, तत्र विंशतितमः, त्रिंशत्तमः, चत्वारिंशत्तमः इति, पञ्चाशत् तमः, तत्र विंशतितमः, तत्र तु विंशति तदनन्तरं तमः इति अस्ति, किन्तु तत्र त्रिंशत् तमः इति अस्ति. किमर्थं तत्र विंशत्तमः इति तत्र तकारस्य द्वित्वमस्ति? गीताञ्जलि भगिनि, किमर्थं त्रिंशत्तमः इति अस्ति?
त्रिंशत् तमः इत्युक्ते विंशति आरम्भतः तदनन्तरं
विंशतितमः इति अस्ति, किन्तु त्रिंशत्तमः इति अस्ति. अतः तत्र किं योजयामः, संख्या विंशतिः तदनन्तरं तम इति योजयामः, तदेव खलु. अतः तत्र विंशतितमः, तत्र किमपि न कार्यं न भवति, तत्र विसर्गः गच्छति इति अस्ति. हा, किन्तु तत्र त्रिंशत् योगः तमः, तत्र किं भवति?
त्रिंशत् योगः तम इत्युक्ते त्रिंशत् तम, तदेव
वर्णमेलनं, तत्र तकारस्य द्वित्वम् अस्ति, अतः विंशत् तमः, तदनन्तरं चत्वारिंशत् तमः, अतः तत्र त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, किन्तु षष्टितमः तत्र केवलं तमः इत्येव.
किमर्थं षष्टि तु इकारान्तपदम् इकारान्तयोजितमः.
हा, तदनन्तरं सप्ततितमः, अशीतितमः, नवतितमः, शततमः. अतः तत्र नवदश अनन्तरं तत्र पूर्णप्रत्ययान्ताः कीदृशः भवन्ति इत्युक्ते, तत्र तमः इति रूपं भवति पुल्लिङ्गे. इदानीं तत्र स्त्रीलिङ्गे किं रूपं किं भवति तत्र? दीर्घ ईकारान्तः भवति, तत्र केवलं तत्र प्रथमा, द्वितीया, तृतीया, तत्र दीर्घ आकारः
अस्ति वा महोदय?
न, प्रथमा, तत्र प्रथमा संख्या यदि एका, द्वे, त्रि, तत्र तिस्रः अस्ति चेत् तत्र तु प्रथमा, द्वितीया, तृतीया, तत्र तु आकारः, दीर्घ आकारः. तदनन्तरं यथा भवती उक्तवती, तत्र चतुर्थी इति ईकारान्त दीर्घ, नदीवत्, पञ्चमी नदीवत्, षष्टि नदीवत्, तदनन्तरं सर्वत्र नदीवत्. इदानीं तत्र किं भवति, तत्र सप्तमः इति स्थाने सप्तमी, अष्टमी, नवमी, दशमी, महा इति आसीत्, इदानीम् ईकार, दीर्घ ईकारः. तदनन्तरम् एकादश, तत्र शीशीषि इति, एकादशीतः
नवदशीतमी
इति भवति. समीचीनं भगिनि. हा, अपि तत्र नपुंसकलिङ्गे तु तत्र प्रथमं, द्वितीयं, तृतीयं, तदनन्तरं चतुर्थं, पञ्चमं, षष्ठं, सप्तमम्, अष्टमं, नवमं, दशमं, तदनन्तरं तत्र दशं, 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 विंशतितमम्
इत्युक्ते अन्तिम तु मा एव योजयामः न, प्रथमा योग मकार प्रथमम्
वनमिति, वनमिति तत्र, तत्र हा वनं, तत्र न क्षम्यतां, तत्र प्रथमम् इति एव भवति,
प्रथमयोगः मकार प्रथमम्,
तत्र प्रथमं वनं, हा, अथवा प्रथमं पुष्पम् इति, तादृशं तत्र षोडशं पुष्पम् अथवा सप्तदश पुष्पम् इति तादृशरूपाणि भवन्ति. इदानीं तत्र एतत् कुर्मः, इदानीं तत्र प्रथमः द्वितीयः तत्र तु किञ्चित् अभ्यासं कृतवन्तः, इदानीम् एतत् स्वीकुर्मः तत्र.
महोदय, नपुंसकलिङ्गे विंशति आरभतः मम आयाति, किन्तु
न तमम् इति, तमम् इति,
तमं क्षम्यतां,
तत्र तमः इति पुल्लिङ्गे, तमी इति स्त्रीलिङ्गे, तमम् इति
नपुंसकलिङ्गे.
अतः तत्र सप्ततितमः, सप्ततितमी, सप्ततितमम्. अतः इदानीं तत्र एतत् वदामः, तत्र एषः कोष्टकः, कोष्टकः अस्ति, कोष्टकः कस्मिन् पुटे अस्ति?
कोष्टकः एकसप्ततितमम्.
एकसप्ततितमं पुटम् एतं पुटं तु, एतत् पुटं तु एकसप्ततितमं पुटं, तस्मिन् पुटे नाम एकसप्ततितमे पुटे एषः कोष्टकः अस्ति.
नपुंसकलिङ्गे सर्वाणि अकारान्त एव.
सत्यं भगिनि, सत्यं सत्यं. अपि तत्र पुल्लिङ्गे अकारान्तदेवशब्दवत् एव, हलन्तपदानि न सन्ति अत्र. अपि तत्र स्त्रीलिङ्गे किं भवति, केवलं प्रथमा द्वितीया तृतीया दीर्घ अकारान्तं लता शब्दवत्, तदनन्तरं नदी शब्दवत्. अतः तत्र दीर्घ इकारः, अतः विभक्तिकार्यं सुलभतया कर्तुं शक्नुमः. इदानीं तत्र एतत् स्वीकुर्मः, इदानीं तत्र पश्यामः, तत्र पुस्तकस्य प्रथमभागे तत्र कस्मिन् पुटे, तत्र प्रथमपुटेन, द्वितीयपुटेन, तृतीय, चतुर्थे न, पञ्चमे, षष्ठे पुटे, षष्ठे पुटे इति न मन्ये, पञ्चमपुटे, पञ्चमपुटे अपि षष्टि, षष्ठे पुटे तत्र पाठाः दत्ताः सन्ति खलु. तत्र प्रथमपाठः कः, द्वितीयपाठः कः इति गीतासोपनस्य पुस्तके अधोभागे अस्ति खलु. तद् दृष्ट्वा तत्र वक्तुं शक्नुमः वा, तत्र प्रथमः अध्यायः कः, सः अध्यायः कस्मिन् पुटे अस्ति इति. अतः तत्र रघुपतिमहोदय, तत्र द्वितीय अध्यायः कस्मिन् पुटे भवति?
द्वितीय अध्याय अस्तु, द्वितीय अध्याय अष्टमे पुटे अस्ति.
अष्टमे पुटे अस्ति, समीचीनं महोदय.
अष्टमः, अष्टमी, अष्टमम्,
अष्टमम्,
अष्टमे, अष्टम्याम्, अष्टमे इति.
समीचीनं महोदय, समीचीनं. इदानीं सूर्यकुमारी भगिनी, इदानीं तत्र तृतीय अध्यायः सः कस्मिन् पुटे अस्ति?
तृतीय अध्यायः त्रयोदशे
पुटे
अस्ति
इति, समीचीनं. लक्ष्मी भगिनी, इदानीं तत्र चतुर्थः अध्यायः
अष्टादशे पुटे
अस्ति अस्ति इति. इदानीं गीताञ्जलि भगिनी, इदानीं तत्र पञ्चमः अध्यायः.
पञ्चमः अध्यायः पञ्चविंशतितमे पुटे.
हा इति समीचीनम् अस्तु. इदानीं तत्र एतत् कुर्मः, तत्र इदानीं तत्र द्वितीयविभक्तेः अभ्यासं तत्र रघुपतिमहोदय इदानीं तत्र षष्ठ पाठः अस्ति. इदानीं तं पाठं पठतु इति यदि भवान् वक्तुम् इच्छति चेत् तत्र किं वाक्यं किं भवति? षष्ठः पाठः अस्ति, तं पाठं पठतु इति. अतः तत्र रूपं किं भवति? षष्ठः पाठः अस्ति.
षष्ठमं पाठं न महोदय, षष्ठमं पाठं
न तत्र षष्ठः इति भिन्नम् अस्ति भगिनि. तत्र पञ्चमः अस्ति, सप्तमः अस्ति, अष्टमः अस्ति, नवमः अस्ति, किन्तु षष्ठः इति एव अस्ति.
ओ, षष्ठं नास्ति महोदय.
न षष्ठः इति पाठः.
न द्वितीयविभक्ति.
हा द्वितीयविभक्ति समीचीनं. हा द्वितीयविभक्ति तु षष्ठं पाठं पठतु. समीचीनं भगिनि. हा षष्ठं पाठं पठतु, समीचीनं भगिनि. अस्तु, इदानीं लक्ष्मी भगिनि तत्र
अपि च षष्ठं पाठं कथं वदामः इत्युक्ते तमे पुटे एव तिष्ठति. तत्र तु द्वितीयविभक्ति न भवितुमर्हति न महोदय?
तत्र अतः अस्माकं वाक्यम् आसीत् षष्ठं पाठं पठतु इति. कुत्र आरभ्यते इति वार्ता नासीत्, किन्तु तत् तं पाठं पठतु इति वाक्यमासीत्.
द्वात्रिंशत्तमं पुटं पठतु.
हा तदपि, हा तदपि वक्तुं शक्नुमः. द्वात्रिंशत्तमं पुटं पठतु. समीचीनं भगिनि. हा इदानीं तत्र अतः तत्र किं तत्र द्वितीयविभक्तेः इदानीं तत्र नवमः पाठः अस्ति लक्ष्मी भगिनी, नवमः पाठः अस्ति. इदानीं वाक्यं किं भवति? तं पाठं पठतु इति नवमं पाठं पठतु. अस्तु, सूर्यकुमारी भगिनी इदानीं तत्र एकादश
अत्र भवति सप्तमं
पाठम् इति. अस्तु, अतः तत्र एतद् प्रायशः अभ्यासं कुर्मः. तत्र सूर्यकुमारी भगिनी इदानीं तत्र सप्त अष्ट नव दश इति तत्र एतान् पाठान् पठन्तु इति तत्र एकमेकं वदतु भगिनि. तत्र सप्तम इति अस्ति, अतः सप्तमं पाठं पठतु.
सप्तमं पाठं पठतु.
इदानीम् अष्ट
अष्टमं पाठं पठतु. नवमं पाठं पठतु. दशमं पाठं पठतु.
दशमं पाठं पठतु. अस्तु, समीचीनं.
दशमं पाठं पठतु.
हा समीचीनं भगिनि. इदानीं तत्र तादृश अभ्यासः भवतु इदानीं तत्र. अस्तु, तत्र रघुपतिमहोदय इदानीं तत्र एकादशतः तत्र त्रयोदशपर्यन्तं त्रयम्
अस्तु. अत्र एकादशं पाठं पठतु, द्वादशं पाठं पठतु, त्रयोदशीं कवितां पठतु.
त्रयोदशीं कवितां पठतु. समीचीनं भगिनि महोदय. अस्तु, अतः तत्र विशेषविशेष्यभावः अस्ति इति कृत्वा तत्र यद् या विभक्तिः विशेष्यस्य सा एव विभक्तिः विशेषणस्य इति अस्तु. इदानीं तत्र स्त्रीलिङ्गे एतावत् तत्र द्वितीयविभक्ति कृतवन्तः. इदानीं तत्र स्त्रीलिङ्ग न स्त्रीलिङ्ग न तृतीयविभक्तेः अभ्यासं कुर्मः. तत्र केवलं तत्र एकसप्ततितमे पुटे कोष्टकः यः अस्ति तम् उपयुज्य एव इदानीं तत्र तृतीयविभक्तिरूपाणि भवेत् वाक्ये. तत्र यथा तत्र द्वितीय तत्र किं तत्र लेखनी लेखनी तत्र द्वितीया अस्ति अथवा प्रथमा अस्ति. प्रथमया लेखन्या अहं लिखामि तादृशं तत्र तृतीया विभक्ति उपयुज्य वाक्यं वदतु तत्र. अस्तु लक्ष्मी भगिनी
कुत्र अस्ति
केवलं कोष्टकं दृष्ट्वा वाक्यं स्वशब्दैः वाक्यं रचयतु. तत्र पुल्लिङ्गे वा स्त्रीलिङ्गे वा यद्यपि तत्र किमपि पूरणप्रत्ययं भवती स्वीकर्तुं शक्नोति किन्तु विभक्ति तृतीया भवेत्. लक्ष्मी भगिनी
प्रथमे श्लोके
तृतीया विभक्ति विभक्ति तु तृतीया. अहं सरलवाक्यं वदामि तत्र
प्रथमेन प्रथमेन अहं प्रथमेन बालकेन सह मन्दिरं गच्छामि.
समीचीनं भगिनि तादृश उदाहरणमेव अहमपि वक्तुम् इष्टवान्. समीचीनं अतः सुलभवाक्यं सरलवाक्यम् एतादृशम् अभ्यासार्थं समीचीनम्. अस्तु गीताञ्जलि भगिनी तादृशं वाक्यं
आम् महोदय. प्रथमया बालया सह बालकः क्रीडति.
समीचीनं. इदानीं सूर्यकुमारी भगिनी इदानीं प्रथमः इति त्यजतु. तत्र दशमतः नवदश तयोः मध्ये कोऽपि कापि संख्या भवतु.
नवदश
अस्तु.
विभक्ति कः महोदय?
तृतीया.
नवदशेन नवदशेन अहं विहरन्
नवदशेन किम् अस्ति नवदशेन
नवदशेन बालकेन नवदशेन बालकेन अहं क्रीडामि
सः इति भवतु खलु तत्र
बालकेन सह अहं क्रीडामि
इति समीचीनं. अस्तु रघुपति
अहं नास्ति बालकेन क्रीडामि.
अस्तु बालकेन
सह क्रीडामि
सः क्रीडामि अस्तु अस्तु भगिनि. रघुपति महोदय
आं महोदय अस्तु पञ्चमः इति पञ्चमेन इति किं भवति पञ्चमेन अस्तु पञ्चमेन पुरुषेण सह अहं गच्छामि इति
समीचीनं.
षष्ठः इति षष्ठः किं भवति षष्ठेन वा
षष्ठेन
षष्ठेन
इदानीं तत्र वदतु महोदय
षष्ठेन किमस्ति षष्ठेन
तत्र लोकयानानि सन्ति मङ्गलूरुतः
सत्यं सत्यम्
अतः किं वदति
अस्तु षष्ठेन बस् यानेन अहं षष्ठेन
लोकयानेन
लोकयानेन
प्राप्तुं शक्नोति
शक्नोमि
हा इति तादृश तत्र षष्ठेन इति
सुलभमस्ति
बहुत्र एतस्य प्रयोगः भवति खलु
महोदय स्त्रीलिङ्गे कथं भवति
षष्ठी इति अस्ति भगिनि अतः नदी शब्दवत् तत्र नदी नद्या षष्ट्या
अहं षष्ट्या पुत्र्या सह मन्दिरं गच्छामि इति
समीचीनं भगिनि हा तावदेव अतः तत्र तत्र दीर्घ इका तत्र नदीवत् अथवा केवलं प्रथमा द्वितीया तृतीया लता शब्दवत् अतः तत्र रूपं सुलभमस्ति विभक्तिकार्यं सुलभतया कर्तुं शक्नुमः केवलं तत् स्थापनीयमिति तत्र अतः तत्र तमः कुत्र भवति अपि शः कुत्र भवति तावत् सावधानम् अपेक्षितम् अस्ति तद् आधिक्येन किमपि न आवश्यकम् अस्ति अत्र अतः इदानीं तत्र चतुर्थी विभक्ति उपयुज्य वाक्यं कुर्मः तत्र अहम् उदाहरणार्थं वदामि तत्र बालकाः सन्ति तत्र पाठशाले विद्यालये बालकाः सन्ति तत्र अहं तत्र अनेकाः बालकाः सन्ति अहं तत्र अष्टमाय बालकाय पुस्तकं ददामि अहम् अष्टमाय बालकाय पुस्तकं ददामि यदि तत् स्त्रीलिङ्गे भवति चेत् वाक्यं किं भवति तत्र बालिका अस्ति चेत् रूपं वाक्यं किं भवति अष्टम्यै
बालिकायै
पुस्तकं
ददामि
इति समीचीनं हा इदानीं तत्र तादृश चतुर्थी विभक्ति उपयुज्य किमपि वदन्तु तत्र लक्ष्मी भगिनी
चतुर्थाय बालकाय उपायनं ददातु
समीचीनं हा अस्तु सूर्यकुमारी भगिनी
पुल्लिङ्ग
केवलं चतुर्थी विभक्ति तावदेव
पुल्लिङ्ग
पुल्लिङ्गमपि समीचीनमेव
ओके चतुर्थाय
किमर्थं चतुर्थी विभक्ति अस्ति चेत् चतुर्थाय इति खलु तत्र कापि संख्या भवेत् खलु
चतुर्थः
न अष्टादशाय अथवा खलु शततमाय किमर्थं चतुर्थाय इति अस्तु किमपि वाक्यं वदतु भगिनि हा चिन्ता मास्तु
चतुर्थाय 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 गुरौ
गुरवे गुरवे
ओ चतुर्थाय गुरवे अहं संस्कृतपाठं स्वीकरोमि
न तत्र तत्र अस्तु अथवा नमः चतुर्थाय गुरवे नमः गुरवे नमः चिन्ता मास्तु
नमस्कारं नमस्करोमि इति न भवति खलु द्वितीयविभक्ति भवति
द्वितीयविभक्ति सत्यं महोदय अतः नमः इति स्थापयति
नमः
नमः इति सुलभं भवति अतः इदानीं तत्र किं कुर्मः तत्
समीचीनं वा न जानामि किन्तु सप्तदशाय वृक्षाय जलम् आवश्यकम् इति समीचीनं महोदय.
जलम् आवश्यकं कस्मै आवश्यकम् इति प्रायशः भवितुम् अर्हति इति मन्ये भगिनि.
इत्युक्ते वृक्षाय जलम्
जलं ददातु इति तत्र
हा ददातु तु समीचीनं. तत्तु इत्युक्ते
सप्तदशाय
वृक्षाय जलं ददामि
इति
तत्तु समीचीनं. किन्तु जलम् आवश्यकम् इति अपि समीचीनं वा महोदय?
तद् न जानामि भगिनि. तत्र
भवति वा
तस्य कृते इति तस्य कृते जलं
तस्य कृते भवितुमर्हति
अथवा तस्य आवश्यकता अस्ति इति तत्र षष्टि इति.
ओ षष्टि, किन्तु चतुर्थी तु समीचीनं नास्ति तत्र.
सम्यक् न जानामि भगिनि. अतः
विवक्ष अनुगुणम् इति वदन्ति जनाः.
किन्तु तत्र किन्तु एषः प्रयोगः प्रसिद्धः न वा इति न जान तत्तु न
जान.
षष्टि एव भवति सामान्यतः न
जाने. अतः अस्तु इदानीम् एतत् कुर्मः. अतः तत्र पूर्ण अत्र सावधानं तत् अथवा नियमः अत्र कः इत्युक्ते तत्र विभक्ति यद् विभक्तिरूपाणि यदि कुर्मः तत्र विशेषणविशेष्यभावः अस्ति इति कृत्वा तत्र परिवर्तनं भवति एव. किन्तु अत्र सर्वदा तत्र किं भवति तत्र दशमः अथवा तत्र षोडशं तत्र अतः तत्र अकारान्त वा ईकारान्त वा अथवा नपुंसकलिङ्गे अकारान्तः वनं शब्दवदेव अस्ति. अतः रूपाणि सुलभतया कर्तुं शक्नुमः. साधारणतया एकवचने एव अस्ति तत्र दशमः बालकः दशमे बालके अथवा त्रिंशतमे पाठे इति तत्र साधारणतया एकवचने एव भवति. इदानीं तत्र अभ्यासार्थम् एतत् अहं वदामि तत्र आङ्ग्लभाषायां वदामि इदानीं तत्र अथवा अहं केवलं वाक्यं वदामि तत्र 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 अस्तु तत्र किं कुर्मः. रघुपतिमहोदय तत्र अनेकाः बालिकाः सन्ति तत्र फिफ्त् अध्यापकस्य पुत्री अतः
अस्तु पञ्चम अनेकाः
अनेकाः बालिकाः सन्ति फिफ्त् वन् अस्ति अध्यापकस्य पुत्री.
आम् अस्तु अस्तु अनेकाः बालिकाः सन्ति अस्तु अनेकाः बालिकाः सन्ति तासु पञ्चम अस्तु अस्तु पञ्चमी बालिका पञ्चमी बालिका भवति खलु पञ्चमी बालिका पञ्चम्याः बालिकायाः नाम सीता इति.
तदपि अस्तु महोदय. अस्तु पञ्चमी बालिका अध्यापकस्य पुत्री तस्याः
पञ्चमी बालिका अध्यापकस्य पुत्री तस्याः पञ्चम्याः बालिकायाः नाम लक्ष्मी इति. किमपि
लक्ष्मी इति समीचीनं महोदय. अस्तु धन्यवादः. अस्तु इदानीं तत्र तादृशवाक्यम् इदानीं लक्ष्मी भगिनी तत्र पुत्रस्य नामकरणं सः करोति पुत्रस्य नामकरणं तिथौ टेन्त् इति. अतः वाक्यं किं भवति तिथिः इति स्त्रीलिङ्गे अस्ति. तिथिः इति स्त्रीलिङ्गे अस्ति टेन्त् इति. अतः किं भवति रूपं किं भवति
दशमी
इति प्रथमविभक्तौ दशमी तिथिः इति एक प्रथमविभक्तिरूपम्. इदानीं सप्तमी विभक्ति किं भवति
सप्तमी
दशमी
दशम्यां तिथौ
तिथौ दशम्यां तिथौ
दशम्यां तिथौ
पुत्रस्य नामकरणं
पुत्रस्य
नामकरणं करोति
करोति
समीचीनम्. अस्तु भगिनि धन्यवादः. अस्तु इदानीं सूर्यकुमारी भगिनि इदानीं तत्र
इकारान्त पुल्लिङ्गं महोदय
न भगिनि तिथिः मध्ये श्रीलिङ्गपदम् बुद्धिः
ह्रस्वैकारः
किन्तु स्त्रीलिङ्गपदम् अस्तु. इदानीं तत्र तत्र इदानीं किं तत्र दुर्गापूजा भवति, सूर्यकुमारी भगिनी दुर्गापूजा भवति, तत्र पुनः तत्र तिथौ इति तिथौ इदानीं सेवेन्त् इति, अतः रूपं किं भवति? दुर्गापूजा भवति, दुर्गापूजा कदा भवति? सेवेन्त् तिथौ इति. इदानीं सेवेन्त् स्थाने किं भवति? पदं किं भवति तत्र? लक्ष्मी भगिनी कृतवती अष्टमी तिथिः इति, तत्र तस्य सप्तमी विभक्ति. इदानीं सप्तमी तिथिः इति पदस्य सप्तमी विभक्तिरूपम्
तिथ्यां
न तिथौ, तिथौ इति अस्ति
महोदय. सप्तमी विभक्तौ रूपद्वयम्
रूपद्वयम् अस्ति, सत्यं तिथ्यामपि सप्तम्यां, सप्तम्यां तिथ्याम् अथवा तिथौ दुर्गापूजा, दुर्गापूजा भवति, भवति इति. अस्तु, रघुवीरनन्दस्वामी नमस्कारः.
महोदय हरिः ओं, नमस्कारः.
नमस्कारः. इदानीं तत्र वयं कुत्र स्मः इत्युक्ते, तत्र एकसप्ततितमे पुटे कोष्टकः अस्ति, तं कोष्टकम् उपयुज्य वाक्यानि कुर्वन्तः स्मः, पूर्णप्रत्ययान्ताः इति. अस्तु, इदानीं तत्र गीताञ्जलि भगिनी, इदानीं तत्र वाक्यं ददामि, तत्र तत्र दुर्गापूजा इति कृतवन्तः तत्र. अस्तु, तत्र अनेकाः मालाः सन्ति भगिनि, गीताञ्जलि भगिनि, अनेकाः मालाः सन्ति, किन्तु तत्र सर्वाः मालाः उत्तमाः न.
अस्तु,
अतः अत्र तत्र इदानीं तत्र दशमी माला अस्ति, दशमी माला या अस्ति तस्याम् उत्तमानि पुष्पाणि सन्ति.
ओ अस्तु महोदय,
अवगच्छति खलु तत्र?
इत्युक्ते दशम्यां मालायां
उत्तमानि पुष्पाणि
सन्ति इति वा महोदय?
सन्ति, सचिन समीचीनं भगिनि. अतः तत्र सा माला दशमी माला उत्तमा,
दशमी माला उत्तमा.
इदानीं तत्र तां दशमीं मालां क्रीणामि,
क्रीणामि
अथवा आम् इति. अतः तत्र दशमी इति, दशमी माला इति. अस्तु, अग्रे तत्र रघुवीरनन्दमहोदय, तत्र पूर्णप्रत्ययः यत्र अस्ति तत्र विशेषणविशेषभावः अस्ति, लिङ्गभेदः अस्ति. तत्र दशमः इति पुल्लिङ्गे, दशमी इति स्त्रीलिङ्गे, दशमम् इति नपुंसकलिङ्गे, तादृशरूपं भवति खलु? तत्र दशमम् इत्युक्ते अनेकाः जनाः सन्ति, क्रमशः यदि वक्तुम् इच्छामश्चेत् तत्र दशजनाः भवन्ति चेत् तत्र प्रथमः जनः, द्वितीयः जनः इति भवति खलु
महोदय?
अतः तत्र दशमः, दशमी माला अथवा दशमं पुस्तकम् अथवा अष्टादश पाठः इति तत्र विशेषणविशेषभावः अस्ति. अत्र कार्यं यत् कुर्वन् स्मः इत्युक्ते तत्र भिन्नभिन्नविभक्तेः तत्र प्रयोजनं कृत्वा वाक्यरचनं भवति. इदानीं तत्र
अष्टादशपादः इति उक्ते तत्र तत् समासपदं वा महोदय?
सत्यं महोदय, किन्तु अष्टादशः पाठः, अतः पदद्वयं, पदद्वयम् अष्टादशः क्षम्यतां तत्र अष्टादशः अष्टादशः पाठः एव तत्र भिन्न तत्र पदद्वयमस्ति चेदपि तत्र विसर्गः अस्ति तावदेव. यदि समस्तपदं भवति चेत् अष्टादशपाठः, तत्र मध्ये विसर्गस्य लोपः. तत्र तु तमः इति न भवति. तत्र पश्यतु, एकादशतः नवदशपर्यन्तं तत्र तमः इति नास्ति, तदनन्तरं तमः इति भवति.
महोदय, किं भेदः किं महोदय?
भेदः किमपि नास्ति, तत् रूपभेदं तावदेव, तादृशरूपमस्ति पूर्णप्रत्ययान्तः तेषाम्. अतः तत्र अस्तु, इदानीं तत्र अन्ये अपि किञ्चित् वदन्तु, तदनन्तरं भवानपि वदतु महोदय. अस्तु, इदानीं तत्र रघुपतिमहोदय, तत्र इदानीं तत्र वयं किं कुर्मः, तत्र विंशति, त्रिंशत्, चत्वारिंशत् तादृशी सङ्ख्या उपयुज्य वाक्यरचनं कुर्मः. अतः तत्र इदानीं तत्र वयं चतुर्थी अपि कृतवन्तः इदानीं. अस्तु, एतत् कर्तुं शक्नुमः अस्मिन् पुस्तके. तत्र रघुपतिमहोदय, इदानीं तत्र पञ्चमी रूपं, पञ्चमीभक्तेः रूपं कुर्मः. तत्र रघुपतिमहोदय, तत्र षष्ठः पाठः पुस्तके, षष्ठः पाठः कुतः आरभ्यते, कुतपर्यन्तम् अस्ति इति. रघुपतिमहोदय.
हा महोदय, एकवारं पश्यामि तत्र कुत्र. एकवारं षष्ठः पाठः, एकवारं महोदय, षष्ठः पाठः, षष्ठः पाठः, आमाम् अस्तु, षष्ठः पाठः द्वात्रिंशात् आरभ्य तदपि भवित् अस्तु, द्वात्रिंशत्तमात् पुटात् आरभ्य षट्त्रिंशत्तमपुटपर्यन्तम् तमपुटपर्यन्तम् अस्ति इति.
अस्ति, इदानीं तत्र इदानीं जानीमः तत्र एतादृशरूपं भवति चेत् क्लिष्टः अस्ति खलु तत्र.
आम्,
तत्र द्वात्रिंशत् तमतः इति तादृश
इति वदामः. आमां, सत्यं.
किन्तु तत्र तमतः इति अस्ति चेत् तत्र क्लेशः भवति खलु मनसि.
आमाम् आमाम्.
अतः तत्र इदानीं किम् अस्ति, तत्र विकल्पः अस्ति इति. अत्र पाठे न दत्तं, किन्तु इति समीचीनं महोदय. अतः तत्र विंशतितम इति स्थाने तत्र विंशतिः इति अस्ति, तत्र विंशत् तदनन्तरम् अह तत्र विंश तदनन्तरं तकारः इकारः तदनन्तरं तम इति भवति. विंशतितमः विंशतितमः तत्र किं कुर्मः, ति तमः तत् सर्वं त्यजामः, विंशः
विंशः एव भवति,
विंशः एव अस्ति, ति नास्ति, तमः अपि नास्ति. अतः विंशतितमः इति समानार्थकपदम् अन्यत् पदम् अस्ति विंशः इति पुल्लिङ्गे. विंशतितमपाठः अथवा विंशः पाठः समानं,
शतपर्यन्तं नवनवतिपर्यन्तं
सत्यं महोदय. अतः तत्र विंशः पाठः. इदानीं तत्र त्रिंशत् तम इति किं भवति?
त्रिंशत् तमः इति अतः अस्तु. त्रिंशः अस्ति.
त्रिंशः एतत् न दत्तम् अत्र, किन्तु सौलभ्यमस्ति. नो चेत् इदानीं तत्र यदा यदि तत्र वक्तुम् इच्छामः महोदय, तत्र षष्ठमः
त्रिंशः पाठः,
तत्र षष्ठः पाठः न पश्यतु, तत्र षष्ठः पाठः कुतः आरभ्यते इत्युक्ते तत्र द्वात्रिंशत् पुटम् अस्ति, ततः आरभ्यते. किन्तु तत् कथं वदामः? द्वात्रिंशत्तमतः पुटतः क्लेशः.
न न महोदय, मया श्रुतं द्वात्रिंशः
द्वात्रिंशात् पुटात् इति अतः द्वात्रिंशात् पुटात्.
किन्तु महोदय एतत् विंशति तमः
विंशति अस्ति, अतः विंशतितमः त्रिंशत् योगः तमः त्रिंशत् तमः इति भवति. किन्तु किं कुर्मः, इदानीं तकारस्य अपि तकारः अपि गच्छति, तमः अपि गच्छति, केवलं त्रिंशः तिष्ठति.
पञ्चाशः
षष्टः, तत्र षष्टः इति रूपम् अस्ति. तदनन्तरं सप्तः, तत्र अशीः इति मन्ये, तत्र एकनिमिषः पश्यामि तत्र किं भवति इति. हा तत्र स्मरति वा? एकनिमिषः तत्र अहं
महोदय तत्र नास्ति, तत्र तत्र नास्ति, अशीतितमः एव तत्र नास्ति. अशीतिः अशीतितमः एव अस्ति तत्र, नवतितमः.
सत्यं, किन्तु तत्र अहं तत्र अन्यत्र दत्तमस्ति, अतः तत् दृष्ट्वा अहं वदामि. तत्र विंशः अस्ति,
त्रिंश अस्ति, त्रिंशपर्यन्तं, त्रिंश पञ्चाशत् पर्यन्तम् अस्ति, सारि पञ्चाशत्तमात् पञ्चशः इति भवति, पञ्चाशः इति. अनन्तरं नास्ति, षष्टि अनन्तरं नास्ति, षष्टितमः
सप्ततितमः षष्टः इति अस्ति महोदय, षष्टः इति रूपम् अस्ति तत्र, तत्र षष्टः इति अस्ति. तदनन्तरं सप्ततः इति अस्ति
महोदय. नास्ति तत्र, एकमस्ति षष्टादेः सङ्ख्यादेः इति असङ्ख्यादिपदे, षष्टादेः तमट् एव न तु डट् प्रत्ययः इति. तमट् अपि डट् प्रत्ययः द्वौ अस्तः, तत्र षष्टि षष्टि अनन्तरं डट् प्रत्ययः नास्ति इति दत्तमस्ति महोदयस्य सङ्ख्या जनादरगिरे महोदयस्य पुस्तके अस्ति.
आम् महोदय,
सिक्स्टि आन्वर्ड् सिक्स्टि सिक्स्टि सेवेण्टि एय्टि नैन्टि तत्र नास्ति, तमः एव अस्ति. तत्र अन्यत्र सर्वत्र विभाषा अस्ति, परन्तु अस्मिन् नास्ति.
किन्तु महोदय तत्र एतत् अस्तु, अहं पुनरेकवारं पृच्छामि. किन्तु यत् यदि जनार्दन महोदय एतत् उक्तवान् तत् समीचीनमेव, मया श्रुतम् अस्ति, अपि अहं लिखितवान्, अतः पुनरेकवारं पृच्छामि. किन्तु
अत्र दत्तमस्ति, अहं
अतः किं कुर्मः, तत्र विंशः त्रिंशः चत्वारिंशः अपि
पञ्चाशः
सौलभ्यं, केवलं तत्र विकल्पः अस्ति, सौलभ्यं भवति इति. अतः तत्र
षष्टिः इति वदामश्चेत् महोदय, षष्टि इति षष्टि
षष्टिः तत्र
आमां न भवति, षष्टिः
महोदय
भवति वा?
विकल्पेन सर्वाणि रूपाणि स्त्रीलिङ्गरूपे नपुंसकलिङ्गे अपि भवितुम् अर्हति महोदय.
न न विकल्पेन नास्ति भगिनि, तत्र रूपत्रयम् अस्ति. किन्तु इदानीं वार्ता का इत्युक्ते, तत्र विंशतितमः इति अस्ति.
अवगतं महोदय, पर्यायवाची एव विंशः
इदानीं स्त्रीलिङ्गे तत् पुल्लिङ्गे अस्ति इदानीं स्त्रीलिङ्गे अस्तु अस्तु भगिनि भवत्याः प्रश्नः कः इति इदानीम् अवगच्छामि तत्र विंशः इति पुल्लिङ्गे विंशी इति स्त्रीलिङ्गे नदीवत्
अस्तु
अतः तत्र विंशतितमी इति स्थाने विंशी इति वक्तुं शक्नुमः
महोदय अन्यत्र अस्ति 60, 70, 80, 90 एतासु सङ्ख्यासु एव नास्ति परन्तु एकषष्टितमः एकषष्टः द्विषष्टः तादृश अस्ति परन्तु 60, 70, 80, 90
तस्मिन् एव तत्र नास्ति वा
तत्र नास्ति एकषष्टः अस्ति द्विषष्टः अस्ति त्रिषष्टः अस्ति तादृश अस्ति परन्तु 60, 70, 80, 90 एते
हा महोदय तत्र प्रायशः तत्र षष्ठः किमर्थं नास्ति चेत् यदि षष्ठः भवति चेत् तत्र सिक्स्त् अपि षष्ठः षष्ठः इति भवति किन्तु तत्र एकाषष्टः इति वदामः
एकषष्टः द्विषष्टः त्रिषष्टः
तत्र वयं जानीमः तत्र तत्तु सिक्स्त् इति नास्ति किन्तु 61st 62nd
सप्तसप्ततितमः इति एकसप्ततमः द्विसप्ततमः इति तादृश द्विनवतः एकनवतः त्रिनवतः इति तादृश
महोदय महोदय तर्हि किन्तु भेदः अस्ति खलु तत्र ठकारः अस्ति महाप्राणः अत्र अल्पप्राणमस्ति षष्टिः षष्ठः
तत्तु सत्यं सत्यं महोदय तत् तदपि सत्यं 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 महोदय तत्र सिक्स्त् इति स्थाने तत्र ठकारः महाप्राणः अस्ति किन्तु 60th इति यदि वक्तुम् इच्छामः तत्र तु तत्र षष्ठः इति तत्र अल्पप्राणः ठकारस्य अल्पप्राणः तत् सत्यमेव महोदय किन्तु तत्र रूपं केवलं षष्ठः इति रूपं न भवेत् इति रघुपतिमहोदयेन उक्तम् अतः किन्तु तत्र यदि अन्या सङ्ख्या अस्ति चेत् तस्मात् प्राक् तत्र द्वा
षष्टिः वा महोदय षष्ठः वा
षष्ठः
षष्ठः अपि एव भवति
षष्टिः इति तत् किं भवति महोदय तत्र
एकषष्टितमः तत्
षष्ठी
इति अस्ति खलु त्रिलिङ्गे अस्ति षष्ठी इति
षष्ठी
इति
पुल्लिङ्गे षष्टिः
पुल्लिङ्गे षष्ठः स्त्रीलिङ्गे षष्ठी नपुंसकलिङ्गे षष्ठं षष्ठम् इति अतः तत्र वदतु भगिनि
त्रिंशत्तमाय
सत्यं भगिनि त्रिंशत्तमः इति अकारान्तपदमेव त्रिंशत्तमात् इति अस्ति
किन्तु विंशतितमस्य अपि अस्ति
सत्यं तत्र देवपद इव तावत् सर्वाणि तत्र यद्यपि विभक्ति कापि विभक्ति तत्र भवितुमर्हति किन्तु तत्र पश्यतु यदि भवती वक्तुम् इच्छति तत्र त्रिंशत्तमात् पुटात् इति तत्र क्लेशः भवति खलु सप्तत्रिंशत्तमात् पुटात् इति खलु अतः तत्र त्रिंशः इति रूपं सप्तत्रिंशात् पुटात्
इति समस्तपदमस्ति चेत् महोदय
न तत्र तु सप्त तत्र सर्वदा कर्तुं शक्नुमः केवलं तत्र अस्तु एतत् अहं चिन्तितवान् तत्र सौलभ्यं भवति इति प्रायशः सौलभ्यम् अत्र नास्ति अत्र किं कुर्मः अतः यत् रूपं दत्तमस्ति तमेव रूपम् उपयुज्य वाक्यं कुर्मः
अतः तत्र प्रयोगं कर्तुं शक्नुमः
अस्तु सत्यं महोदय अतः तत्र किं कुर्मः तत्र प्रायशः तत्र सम्भाषणं यदस्ति तद् एकवारं पठामः, नो चेत् भ्रमः तिष्ठति एव. अतः तत्र सम्भाषणं पठामः. अस्तु, तत्र किं कुर्मः, तत्र पुटद्वयम् अस्ति, अतः तत्र आरम्भे तत्र लक्ष्मीभगिनी सूर्यकुमारी भगिनी भवत्यौ कुरुतः वा?
आं महोदय,
सप्तमीतमः पुट महोदय.
किं भगिनि?
सप्ततितमः पुट,
नव नव किम् अस्ति तत्र, नवषष्टितम तमे पुटे, नवषष्टितमे पुटे.
महोदय, तत्र विंशः विंशि नपुंसकलिङ्गे महोदय?
विंशम्
विंशम् अस्तु, विंशः
धन्यवादः. तादृश एव त्रिंशत् अपि, त्रिंशः त्रिंशि त्रिंशं
त्रिंशम्
भगिनि. अहं सदा भगिनी किं कुर्वती अस्ति भवती?
अहम् एकां दिनदर्शिकां रचयन्ती अस्मि.
हा, तत्र दिनदर्शिका इत्युक्ते किं?
दिनदर्शिकां द्वितीयविभक्ति.
लक्ष्मी भगिनि, दिनदर्शिका इत्युक्ते किं?
दिनानि दर्शयति.
दिनदर्शिका दिनदर्शिकां
रचयन्ती अस्मि.
रचयन्ती इति रूपं किम् अस्ति तत्र?
श्रीलिङ्ग
रचयन्ती रचयन्ती अस्मि. समीचीनं भगिनि. हा अस्तु, लक्ष्मी सूर्यकुमारी भगिनी अग्रे.
भो, अधुना विपण्यां विविधाः दिनदर्शिकाः लभ्यन्ते खलु, पुनः निर्माणं किमर्थम्?
हा, भवती अवगच्छति वा तत्र वाक्यम्?
आम् आम् भगिनि.
अस्तु, तत्र विपणि इत्युक्ते का?
विपण्यां
इत्युक्ते
किराणे
आपणम् इति. हा, किन्तु भेदः अस्ति तत्र तयोः मध्ये, विपणिः आपणम् आपणः.
विपणिः श्रीलिङ्गपदमस्ति.
हा, तत् तदस्ति, अपि अर्थभेदः अस्ति तत्र. आपणः इत्युक्ते केवलम् एकः एव आपणः भवेत्,
विपणिः
मार्केट् इति, बजार् मार्केट् इति विपणिः इति भवति. आपणः इत्युक्ते शाप् इति अर्थे.
सप्तमी विभक्ति उपन्यां
विपणी विपण्यां, समीचीनम्.
विविधाः बहुवचनप्रथमविभक्तिः. दिनदर्शिकाः दिनदर्शिका श्रीलिङ्गपदं महोदय.
सत्यं भगिनि,
दिनदर्शिकाः
अपि दिनदर्शिकाम् इति आसीत् खलु पूर्वम्?
आम् आम्. दिनदर्शिकाः लभ्यन्ते खलु, पुनः प्रश्नवाचकमस्ति. विपण्यां दिनदर्शिकां लभ्यन्ते, पुनः
निर्माणं किमर्थं, निर्माणं किमर्थम् इति, तत्र निर्माणं किमर्थम् इति, कस्य निर्माणम् इति प्रश्नः भवति चेत् उत्तरं किं भवति?
दिनदर्शिकां निर्माणं.
दिन
दर्शिकां निर्माणं.
याः दिनदर्शिकायाः, षष्ठी खलु, कस्य निर्माणं, दिनदर्शिकायाः निर्माणं किमर्थम्? अग्रे.
एषा किञ्चित् भिन्ना अस्ति. अस्यां सर्वे भारतीयाः उत्सवाः, महापुरुषाणां जन्मतिथयः, ऐतिहासिकमुहूर्ताश्च उल्लिखिताः सन्ति. तेन राष्ट्रस्य विषये ज्ञानं सुकरं भवेत्.
हा अस्तु, इदानीं लक्ष्मी भगिनी, तत्र एषा भिन्ना अस्ति, एषा का भिन्ना अस्ति?
एषा दिनदर्शिकायां
एषा अस्ति चेत् भिन्ना अस्ति, का भिन्ना अस्ति एषा?
एषा दिनदर्शिका
भिन्ना अस्ति. इदानीं तत्र अस्यां
अस्यां दिनदर्शिकायां सर्वे भारतीयाः उत्सवाः महापुरुषाणां जन्मतिथयः ऐतिहासिकमुहूर्ताश्च उल्लिखिताः सन्ति.
हा, तत्र उत्सवाः, तत्र अनेकाः उत्सवाः सन्ति, भारतीयाः उत्सवाः, अतः अनेके, हा, अतः तत्र ते सर्वे तत्र उल्लिखिताः, सूचिताः इति, सूचिताः इति, प्रदर्शिताः अपि किं महापुरुषाणां
जन्मतिथयः.
तितयः, तितिः एकवचने, तितयः,
तितयः बहुवचने,
बहुवचने, हा, उल्लिखिताः सन्ति इति कृत्वा तत्र प्रथमविभक्तिरूपमेव अस्ति सर्वत्र. हा, अपि ऐतिहासिकमुहूर्ताश्च, ऐतिहासिकमुहूर्तः इति तत्र उदाहरणं किम्?
ऐतिहासिक गणेशचतुर्थी
वा? न, ऐतिहासिक, न, ऐतिहासिक, तत्र उत्सव तु दीपावली, गणेशचतुर्थी, तत् सर्वं भवति, अथवा विवेकानन्दस्य जन्मदिनं, तद् किं महापुरुषाणां जन्मतिथेः इति भवति, किन्तु तत्र ऐतिहासिकमुहूर्ताः इत्युक्ते स्वातन्त्र्यदिनं,
कृष्णजयन्ती,
न, कृष्णजयन्ती ऐतिहासिक न भवति खलु भगिनि, ऐतिहासिक इत्युक्ते तत्र
स्वातन्त्र्यदिनं
खलु, ऐतिहासिकदिन, अस्तु, उल्लिखिताः, सूचिताः, प्रदर्शिताः सन्ति तेन, तेन इत्युक्ते केन,
तेन
कार्येण इति,
हा, तेन कार्येण अथवा तत्र प्रदर्शनेन, तत्र प्रदर्शित, ते सर्वे
प्रदर्शिता भवितुमर्हति,
हा, तत्र, हा, सत्यं महोदय, हा, तत्र तेन कार्येण इति सुलभमस्ति, तेन कार्येण राष्ट्रस्य
विषये ज्ञानं सुकरं भवेत्,
सुकरं भवेत्, हा, समीचीनम्, अस्तु, सूर्यकुमारभगिनी अग्रे.
अतीव शोभनं भवति तद् दर्शयत् तावत्.
अत्र ताम् इति भवेत् खलु महोदय, दिनदर्शिका इति अस्ति, अतः भवती तां दर्शयतु इति,
हा, सत्यं, सत्यं महोदय,
तत् इति अस्ति,
तत् इति अस्ति, किन्तु हा, तत् दर्शयतु तावत्, सत्यं महोदय, ताम् अपि इति भवेत् तत्र, सत्यं, हा,
पत्रम् इति तादृश पत्रं दर्शयतु, पुटं,
सत्यं,
अतीव शोभनं
भवति, तत्र दिनदर्शिकां दर्शयतु तावत्, लक्ष्मीभगिनी अग्रे.
महोदय, अतीवशोभनम् इति अस्ति, तत् कार्यम् अतीवशोभनम् इत्यर्थे अस्ति, अतः तत्रापि
तत् कार्यं दर्शयतु, अतीवशोभनम्
अतीवशोभना इति भवेत्, तत् शोभनम् इति अस्ति, अतः तत् कार्यम् अतीवशोभनम् अस्ति, भवत्याः कार्यं
कार्यं यत् कृतवती तद् दर्शयतु,
तादृश अर्थे अस्ति,
सत्यं, सत्यं, तत्र केवलं दिनदर्शिका इति न, किन्तु यत्, हा, यत् कार्यं सा दिनदर्शिकया कृतवती तद् दर्शयतु इति.
ततः पूर्वं भवत्याः परीक्षां करोमि, भवती मम प्रश्नानाम् उत्तरं वदेत्.
तत्र कोऽपि, अग्रे,
अस्तु भगिनि,
अस्तु, स्वातन्त्र्यदिनोत्सवः कदा भवति?
कः न जानामि भो,
जानाति भोः,
भोः, अगस्त मासस्य पञ्चदशे दिनाङ्के
स्वातन्त्र्यदिनोत्सवः भवति. इदानीं तत्र पञ्चदशे दिनाङ्के इदानीं प्रयोगः कीदृशः इति ज्ञातवन्तः. अस्तु, अग्रे.
सुदे, तर्हि गणेशोत्सवः कदा?
चतुर्थीं नास्ति भगिनि, चतुर्थ्यां खलु,
चतुर्थी इति जानामि, किन्तु मासं तु न स्मरामि भगिनि.
भवतु, अहमेव वदामि. भाद्रपदमासस्य शुक्लपक्षे चतुर्थ्यां तिथौ गणेशोत्सवः.
हा इति तावत् पर्यन्तं धन्यवादः. अतः तत्र किं किम् अस्ति? पञ्चदशे दिनाङ्के चतुर्थ्यां तिथौ, पुनः चतुर्थ्यां तिथौ इति. अस्तु, समीचीनम्. अस्तु, इदानीं
सप्तमी
सप्तमी इति अस्ति. अस्तु, अग्रे तत्र गीताञ्जलि भगिनी अपि, रघुपतिमहोदय.
अस्तु अस्तु, कः तृतीयप्रश्नः?
छत्रपतेः शिवराजस्य जन्म फागुन् मासस्य द्वितीयायां तिथौ उत तृतीयायां तिथौ?
तृतीयायां तिथौ एव, न तु द्वितीयायां तिथौ.
तत्र द्वितीयायां तिथौ इति तत्र सप्तमी अस्ति, प्रथमविभक्तिरूपं किं भवति?
द्वितीया तिथिः.
हा, द्वितीया तिथिः, तृतीया तिथिः. समीचीनम्. अग्रे
समीचीनम् उत्तरम् उक्तवती भवती. तर्हि एतत् वदतु, वयं नवरात्रोत्सवं कदा
आश्वयुजमासस्य शुक्लपक्षे प्रथमायाः तिथेः आरभ्य नवमीं तिथिं यावत् नवरात्रम् आचरामः. तत्र अष्टमी तिथिः दुर्गाष्टमी इति, नवमी तिथिः महानवमी इति, दशमी तिथिः विजयदशमी इति विख्याताः. प्रथमायाः तिथेः
शुक्लपक्षमासस्य
प्रथमायाः तिथेः आरभ्य, पञ्चमी अस्ति आरभ्य इति, अत्र आरभ्य इति कस्मात् आरभ्य इति, प्रथमायाः तिथेः आरभ्य नवमीं तिथिं नवमीं तिथिम् इति, अत्र तिथिं यावत् नवमीं द्वितीयविभक्ति नवरात्र आचरामः. अष्टमी तिथि इति तत्र प्रथमा विभक्ति, अष्टमी तिथिः, नवमी तिथिः, दशमी तिथिः इति, एते प्रथमा विभक्त्यां सन्ति यथाः.
समीचीनं महोदय. अष्टमी तिथिः, नवमी तिथिः, अपि दशमी तिथिः. अस्तु, गीताञ्जलि भगिनी अग्रे.
प्रथमविभक्ति सत्यं. किमर्थं दशमीं तिथिं विजयदशमीं वदन्ति?
दशम्यां तिथौ एव दुर्गादेवी महिषासुरं हतवती, अतः देव्याः विजयकारणात् दशमीं तिथिं तथा वदामः. यथावता भवती मां प्रश्नैः पीडितवती, इदानीम् अहमपि किञ्चित् पृच्छामि.
तत्र इदानीं तत्र पीडितवती इति अन्यः अन्यत् पदं किमस्ति तत्र? पीडितवती इति स्थाने न न अस्तु, हा, किन्तु अन्यत् अन्यत् किमपि पदं तत्र पीडमास्तु चेत् दुःख, हा, तत्र क्लेशः, मनसि
क्लेशः,
हा, अथवा दुःखं तत्र दुःखकरम् आसीत्. तत्र भवती अनेकाः प्रश्नान् अनेकान् प्रश्नान् पृष्टवती, अतः मनक्लेशः अभवत्, पीडितवती. हा, इदानीम् अस्तु.
किन्तु किन्तु सुधा भगिनी सर्वं तु जानाति एव किमर्थम्.
अस्तु, इदानीं भवती
पृच्छतु पृच्छतु तावत्.
तर्हि चैत्रमासस्य प्रथमायाः तिथेः वैशिष्ट्यं किम्?
चैत्रमासः
तिथेः इति तत्र विभक्ति का तत्र?
षष्टि एव.
हा, वैशिष्ट्यं पूर्वं तत्र प्रथमायाः तिथेः तत्र पञ्चमी,
किन्तु अत्र
षष्टि. समीचीनं.
किमर्थं चैत्रमासस्य अपि षष्ठम्?
न न न, तत्र वैशिष्ट्यम् इति अस्ति, अतः षष्टि. कस्य वैशिष्ट्यं, वैशिष्ट्यम् अथवा कस्याः कस्याः वैशिष्ट्यं? अतः तत्र तिथेः, प्रथमायाः तिथेः वैशिष्ट्यं किम् इति.
अस्तु अस्तु महोदय, वैशिष्ट्यम् इत्युक्ते कस्य वैशिष्ट्यं, प्रथमायाः तिथेः वैशिष्ट्यं किं? चैत्रमासस्य प्रथमायां तत्तु सप्तमी तिथौ एव युगा दीपर्व
युगादिपर्व
भवति.
सखि, आषाढमासस्य चतुर्दश्यां तिथौ कोऽपि विशेषः अस्ति किम्?
आषाढमासस्य चतुर्दश्यां तिथौ, अस्तु, चतुर्दश्याः तिथेः विषये मम ज्ञानं नास्ति, परन्तु आषाढमासस्य पूर्णिमायाम् एव व्यासजयन्ती इति जानामि. गुरुपूर्णिमा इत्येव तस्याः प्रसिद्धिः. अस्तु भगिनि, भवती अपि दिनदर्शिकायाः निर्माणे सहायं करोति किम्?
निश्चयेन करोमि, वदतु मया किं करणीयम्?
भवती एतानि पत्राणि गृह्णातु. प्रथमे पत्रे उत्सवानाम् आवलिः अस्ति. द्वितीये पत्रे महापुरुषतिथयः लिखिताः सन्ति. तृतीयं पत्रम् इदानीं न आवश्यकं, तत् पार्श्वे स्थापयतु.
तथैव करोमि.
तत्तु समीचीनं महोदय. प्रथमे पत्रे तु सप्तमी, द्वितीये पत्रे सप्तमी, तृतीयं पत्रम् इदानीम् इत्युक्ते तत्तु प्रथमं
नपुंसकलिङ्गे अस्ति.
इदानीं तत्र रघुवीरनन्द स्वामी, भवान् तत्र इदानीं तत्र भवानपि तत्र पठति वा? इदानीं तत्र कथम् एतत् कुर्मः इति न जानामि, किन्तु
मम रघुवीरानन्दः.
अस्तु अस्तु अस्तु, रघुवीरानन्द स्वामी तत्र तिरुपतिमूर्ति स्थाने भवान् इदानीं तत्र गीताञ्जलि भगिनी भवती एव तत्र.
ओ, अहं पठामि वा? रघुवीरानन्द
भवती अपि रघुवीरानन्द महोदय.
ओ अस्तु अस्तु, अहं तु अस्तु तथैव. भवती प्रथमं पुत्रं, द्वितीयं पुत्रं च क्षम्यतां क्षम्यतां, भवती प्रथमं पत्रं द्वितीयं पत्रं च दृष्ट्वा कस्यां तिथौ कस्मिन् दिनाङ्के च किं भवति इति सूचयतु, अहं लिखामि.
अस्तु. एप्रिल् मासस्य चतुर्दशे दिनाङ्के अम्बेड्कर् जयन्ती भवति. श्रावणमासस्य कृष्णपक्षस्य अष्टम्यां तिथौ श्रीकृष्णजयन्ती भवति. तस्मिन्नेव मासे पूर्णिमायां संस्कृतदिनमपि भवति. भगिनी, श्वः द्वादशः दिनाङ्कः खलु? मम परीक्षाः आरप्स्यन्ते, मया पठनीयमस्ति, अतः गच्छामि किम्?
किन्तु अत्र एप्रिल् किमर्थम्, एप्रिल् मास इति नाम आङ्ग्लभाषायां किमर्थं?
यतोहि तत्र अम्बेड्कर् जयन्ती इति अस्ति, तत्र एतावत् तत्र किम् आसीत् भगिनि, तत्र चन्द्रमान इति आसीत् खलु, तत्र तिथिः तिथिः इति आसीत्, किन्तु इदानीं तत्र एप्रिल् मासस्य चतुर्दशे दिनाङ्के एव अम्बेड्कर् जयन्ती अस्ति. यथा पूर्वं स्वातन्त्र्यदिनं कदा भवति इत्युक्ते तत्र अगस्त् मासस्य पञ्चदशदिनाङ्के
तिथ्याम् आधारेण नास्ति, केवलं दिनाङ्के अस्ति, अतः एव प्रायः.
सत्यं सत्यं
सत्यं. भवतु, भवती सम्यक् पठतु, पुनः कदा आगमनं भवेत् भवत्याः?
षोडशे दिनाङ्के आगमिष्यामि, यतः पञ्चदशं दिनाङ्कं यावत् परीक्षाः भविष्यन्ति.
अस्तु, पुनर्मिलावः.
अस्तु, पुनर्मिलाव. अस्तु, समीचीनमस्ति. अतः तत्र वयं जानीमः इदानीं तत्र पूर्णप्रत्ययान् यान्तानां प्रयोगः कथं भवति इति. अतः तत्र विशेषणविशेष्यभावः अस्ति, अपि रूपं तत्र केवलं देवपदं वत् अथवा नदी वत् अथवा वनं वत् अस्ति इति कृत्वा रूपाणि विभक्तिकार्यं तु सुलभम् एव अस्ति. अस्तु, इदानीं तत्र अग्रे पश्यामः. तत्र
एकः सुलभः अस्ति, एकवचने एव सन्ति.
सत्यं भगिनि, हा सत्यं सत्यं. हा, अतः तत्र हा अस्तु, अतः तत्र किं कुर्मः, तत्र प्रायशः तत्र किं 73 इति कथं वदामः इदानीं?
त्रिसप्ततितमः,
त्रिसप्ततितमे पुटे द्वितीय अभ्यासः अस्ति, तत् पश्यामः, तम् अभ्यासं पश्यामः इदानीम्. अस्तु, तत्र रघुवीरनन्दस्वामी भवान् एव आरम्भं करोति वा तत्र?
त्रिसप्ततितमे पुटे कौरवपाण्डवाः बाल्ये वीटया क्रीडितवन्तः. क्रीडासम्बद्धानि कानिचन वाक्यानि अत्र सन्ति. तानि वाक्यानि यथोदाहरणं पूरणप्रत्ययान्तेन पूरयत. इटा, गुल्लि, दण्डा. क्रीडारम्भे पाण्डवेषु प्रथमः युधिष्ठिरः वीटां कौरवेषु, तृतीयाय दुःशासनाय सम्प्रेषितवान्.
तत्र कस्मै सम्प्रेषितवान्? दुःशासनाय सम्प्रेषितवान्, चतुर्थी इति.
नम्बर् 3 दुःशासनः,
थर्ड्. समीचीनं महोदय, अग्रे.
पाण्डवेषु द्वितीयः भीमः वीटां कौरवेषु प्रथमाय दुर्योधनाय सम्प्रेषितवान्.
हा, समीचीनं महोदय. हा, अस्तु, इदानीं तत्र लक्ष्मी भगिनी अग्रे.
वी हेव् टु प्ले लेडीस् गेम् आल्सो महोदय.
सत्यं सत्यं. हा, लक्ष्मी भगिनी अग्रे.
अस्तु महोदय. महोदय, वीटा इत्युक्ते
तत्र गुल्लीदण्डा इति दत्तमस्ति भगिनि. गुल्लीदण्डा तत्र जानति वा, गुल्लीदण्डा इति?
महोदय, क्रीडितवान् अपि.
अस्तु भगिनि,
अस्तु. तृतीयं वाक्यं
सत्यं.
कौरवेषु द्वितीयः युयुत्सुः वीटां पाण्डवेषु चतुर्थाय नकुलाय
सम्प्रेषितवान्.
चिन्ता मास्तु, तत्र एकमेकं वाक्यम् उक्त्वा समापयामः तावदेव. अस्तु, सूर्यकुमारी भगिनी अग्रे.
महोदय, पाण्डवेषु पञ्चमः सहदेवः वेटां कौरवेषु चतुर्थाय दुस्सहाय सम्प्रेषितवान्.
हा, समीचीनं. हा, अस्तु, रघुपतिमोदी अग्रे.
पाण्डवेषु तृतीयः अर्जुनः वीटां कौरवेषु पञ्चमाय दुश्शलाय सम्प्रेषितवान्
सम्प्रेषितवान् अस्तु गीताञ्जलि भगिनी अन्तिमवाक्यं
महोदय दुश्शल इति स्त्रीलिङ्गपदम् अस्ति खलु
दुश्शलः इति प्रायशः तत्र दुश्शल इति भिन्नं दुश्शलः इति प्रायशः अपि पुत्रः अस्ति इति मन्ये भगिनि न जानामि
दुश्शलायै भवेत् खलु
इति भवेत् किन्तु दुश्शलाय इति दत्तमस्ति प्रायशः तत्र दुश्शलः इति अपि पुत्रः अस्ति न वा इति न जानामि भगिनि गीताञ्जलि भगिनी अन्तिमवाक्यं
आम् महोदय कौरवेषु विंशतिः चित्राक्षः विंशतितमः क्षम्यतां महोदय कौरवेषु पञ्चविंशतितमः चित्राक्षः वीतां कौरवेषु पञ्चाशत्तमाय चित्रायुधाय सम्प्रेषितवान् इत्युक्ते विभक्ति तस्य परमाय पञ्चाशत्तमाय चित्रायुधाय सम्प्रेषितवान्
इति अस्ति अस्तु समीचीनम्
अत्र पञ्चाशः इति
पञ्चाशः इति तत् कर्तुं तदपि पञ्चाशाय इति
पञ्चाशाय चित्रायुधाय सम्प्रेषितम्
तदपि कर्तुं शक्नुमः यदि क्लेशः नास्ति अस्तु तर्हि अस्तु अतः रघुवीरन्द महोदय अन्ते तत्र शान्तिमन्त्रं वदति वा तदनन्तरं समापयामः
पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय नमस्ते